सर्वेभ्यो नमः, स्वागतम्। गतवर्गे वयम् अत्र तत्र कुत्र अन्यत्र सर्वत्र एतत् कृतवन्तः, अपि अस्ति नास्ति तस्य विषये अपि वयं कृतवन्तः। अत्र प्रश्नाः सन्ति वा? आर् देर् एनी क्वश्चन्स् इन् वाट् वी डिड् लास्ट् क्लास्? Asto. If there are no questions, we will continue to the ninth chapter. So, the title is Aham Sarvasya Prabhavaha. So, the topic is Shashti Vibhaktihi. So, in Sanskritam we have, you can say 7 or 8 Vibhaktis. So, Vibhakti is like a case. So, Pratama Vibhaktihi, द्वितीयाविभक्तिः, तृतीयाविभक्तिः, चतुर्थीविभक्तिः, पञ्चमीविभक्तिः, षष्ठीविभक्तिः, सप्तमीविभक्तिः, सम्बोधनं, लैक् दट् इट् इस् दर्. सो टुडे वी विल् लर्न् द 6th विभक्ति, षष्ठीविभक्तिः. सो लेट् अस् रीड् हियर्. पुनीत् महोदय, भवान् पठति वा?
कृष्णः, बलरामः, षष्टिविभक्तिः. गान्धारी, धृतराष्ट्रः.
न न न, अत्र कृष्णः बलरामः, कृष्णस्य भ्राता बलरामः.
कृष्णस्य भ्राता बलरामः, गान्धार्याः पतिः धृतराष्ट्रः.
अस्तु, अत्र कृष्णः अस्ति, बलरामः अस्ति. तत्र कृष्णास् ब्रदर् इस् बलराम, अतः कृष्णस्य भ्राता बलरामः. भ्राता नाम ब्रदर्, भ्राता बलरामः. अनन्तरं गान्धारी अस्ति, धृतराष्ट्रः अस्ति. गान्धार्याः पतिः धृतराष्ट्रः. सो गान्धारीस् हस्बेण्ड् इस् धृतराष्ट्रः. अस्तु, अनन्तरं नरसिंहमूर्ति महोदय, भवान् पठति वा?
सुभद्रा अभिमन्युः, सुभद्रायाः पुत्रः अभिमन्युः.
आं, समीचीनं. सुभद्रास् सन् इस् अभिमन्युः. अस्तु, अनन्तरं भवानेव पठतु.
महाभारतं व्यासः, महाभारतस्य कर्ता व्यासः.
द रैटर् महाभारतं, रैटर् इस् व्यासः, द वन् हू रोट् महाभारतम्. अस्तु
भगिनि, केन् विषये इन् द रिवर्स् आल्सो, व्यासस्य कर्तु बुक् इस् महाभारतम्. ओके,
विदौट् यूसिङ्ग् षष्ठीभक्तिः यु केन् से व्यासः महाभारतं लिखितवान्. अनन्तरम् अत्र उदाहरणानि सन्ति, दे आर् एक्साम्पल्स्. पूर्णिमा भगिनी, भवती प्रथमं पठति वा? पूर्णिमा
भगिनि, श्रूयते वा?
आं, श्रूयते.
अर्जुनस्य गुरुः द्रोणः वा?
आम्, अर्थ
अर्जुनस्य गुरुः द्रोणः, द्रोणस्य शिष्यः अर्जुनः तथा वा
आम् अस्तु सो अर्जुनस्य गुरुः द्रोणः अत्र अर्जुनस् टीचर् और् गुरु इस् द्रोणः अस्तु अनन्तरं प्रिया भगिनी भवती पठतु
देशस्य नाम भारतम्
आम् समीचीनम् अस्तु अनन्तरं शिल्पा भगिनी अस्तु सूरेन्द्रमहोदय आम् आम् आं भवती आं तृतीयं थर्ड् वन्
अर्जुनस्य आयुधं गांडीवम्
आम् अर्जुनस् वेपन् इस् गांडीवम् अस्तु अनन्तरं सुरेन्द्रमहोदय केन् यु रीड् द फोर्थ् वन्
दुश्शलायाः पतिः जयद्रथः
समीचीनं सो दुश्शलास् हस्बेण्ड् इस् जयद्रथः अनन्तरं पुनीत् महोदय भवान् पठतु
कौरवसेनायाः नायकः भीष्मः
समीचीनं सो द लीडर् आफ् द आर्मि आफ् कौरवास् वास् भीष्म और् द आर्मि आफ् कौरवास् लीडर् वास् भीष्मः अस्तु अनन्तरं नरसिंहमूर्तिमहोदय
नद्याः नाम गङ्गा
सो रिवर्स् नेम् इस् गङ्गा समीचीनं पूर्णिमा भगिनी अस्तु प्रिया भगिनी
कादम्बर्याः रचयिता बाणभट्टः
द वन् हू रोट् द नावल् कादम्बरी इस् बाणभट्टः अस्तु अनन्तरं शिल्पा भगिनी एतत् पुस्तकस्य नाम गीतासोपानं बुक्स् नाम गीतासोपानम् अनन्तरं शिल्पा भगिनी
रामायणस्य कर्ता वाल्मीकिः
आं समीचीनम् रामायणं रैटर् इस् वाल्मीकिः नेक्स्ट् नगरस्य नाम इन्द्रप्रस्थम् अत्र द प्लेस् आर् सिटी नेम् इस् इन्द्रप्रस्थम् अस्तु अत्र प्रश्नाः सन्ति वा आर् देर् एनी क्वश्चन्स् अस्तु Now we will see how to, now we know where Shashti Vibhakti is used. Now we have to know how to form that, how to make that form. So we know how to do it for Prathama Vibhaktihi. Now we are learning it for Shashti Vibhaktihi, the sixth Vibhakti. Avadeyam. Astu. पुनीत् सुरेन्द्रमहोदय भवान् पठति वा
कृष्णः कृष्णस्य गीता
न न अत्र हौ कृष्णः बिकम्स् कृष्णस्य रैट् सो लैक् दट् वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां
सेनायाः सेनयोः सेनानां षष्टि नारी नार्याः नार्योः नारीणां ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानां षष्टि
समीचीनम् अस्तु अत्र अस्तु एकनिमिषः ऐ विल् पास् मै शेरिङ्ग् वन् सेकेण्ड् Can everyone see my screen again?
No, it is paused.
It is paused.
Still? Oh, one second. Yeah. Let me read, sorry. Can everyone see the slideshow? अस्तु अत्र अ अथवा आकारान्त पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गशब्दाः अस्तु अत्र अकारान्त पुल्लिङ्गशब्दः अस्ति रामः अत्र रामः रामस्य रामयोः रामाणाम् इति अस्ति अत्र ते दत्तमस्ति This is an example. So, one example for Akaranta Pullinga Shabda is Ramaha or Rama. Here they have given the root word. Does anyone remember what is the word for root word in Sanskritam?
Pratipadikam.
Pratipadikam. Atra, the Pratama Vibhakti Eka Vachanam will be Ramaha. But here they have given us the Pratipadikam. So, we have rama ram ramaha iti asti tasya pratipadikam asti rama so its shashti vibhakti form will be ramastya ramayoho ramanam so here for any akaranta pullinga shabdah so this is for any akaranta pullinga shabdah you have it ending in a right so ram a so then we add Sya, Rama, Sya, and then Hraswa, Yogaha, Yoho, meaning Rama, Yoho, you do not, so the Hraswa, Dirga, there are two things, so Hraswa is, for Rama, Hraswa is Rama, Dirga will be Rama, so each letter will have a hraswa and dirgha. So, if we have ma, the hraswa will be ma, dirgha will be ma. So, here what they are saying is, you keep it hraswa, you keep it short, so rama, and then you add yoho. So, rama yoho. And then, we elongate it, we make it longer. So, rama, and then add naam, so rama naam. So, if we have vrikshaha, Can anyone tell me what it will be?
Vrikshayoho. Vrikshanam.
Vriksha. Atra vriksha iti dattamas. So we have vriksha. So that is the pratipadikam. So vriksha, vriksha, sya, vriksha, yoho, vrikshanam. Astu. So this is the form for just akaranta pulinga shabdah. Now akaranta strilinga shabdah. So we have Sita. So that is the pratipadika. So Sita. Then we have the shashti bhakti forms will be Sitayah, Sitayoho, Sitanam. So here we have Sita. So for any akaranta pullinga shabdah, let us keep lata. So lata, lata, yaha, and then we have to make it hraswa. So lata yoho, and then we make it dirga. So lata, and then add naam. So lata naam. Are there any questions on this?
Bhagini?
Yes?
So, all of the... Sorry, somebody else is asking.
Did anyone else have a question?
Huh. Sakar Anta Striling.
Can you repeat your question, Mahodaya?
I said Akar Anta Striling Shabda.
There is no Akar Anta Striling Shabda.
Okay. All are Akar Anta.
Oh, Akar Anta.
Bhagini, for Akaranta Pullingaha, it is always the naam, na sound that is added, Bhagini, or is it just
no, it, we will learn about natvam later. So sometimes you will have the na, and sometimes you will have na. So for now, we'll keep everything with this na itself. But when we learn about natvam, maybe in like a few weeks, then we'll start learning when we need to make it this na and when we have to make it this na. So okay, to keep the process simple for now, we'll just use this na.
Okay, Bhagini.
Astu. So we will practice a little bit of Shashti Vibhaktihi so that we get fluent with it. So before we do that, yes Mahodaya, one second. So before we do any practice, first let us learn where we need to use the Shashti Vibhakti. So can everyone see? Astu. Atra Shashti Vibhakti. So Pratamaha. So Yatra Sambandaha Drishyate Tatra Sambandha Vachakasya Padasya Shashti Vibhakti Shashti Bhavati. Meaning wherever
screen is not visible.
Amva Mahodaya.
You cannot see the screen. Blank.
One second, Mahodaya, let me see.
Yeah.
Iranin Dushyateva?
Astu.
Astu. Atra yatra sambandha drushyate tatra sambandhavachakasya padasya shashti bhavati. What does this mean? Wherever there is sambandha, there is like connection, there, whoever's connection it is, that word will have shashti bhavati, meaning yesha ramasya lekhani. Astu. So yesha, this is Ramasya, Ramas, Lekhani, pencil or pen. So, it is Ramas pen or pencil, right? So, Ramas is the relationship. It's the one that has a relationship to the pencil. It is his pencil. So, since it is his relationship, we say Ramasya Lekhani.
Belonging to Rama?
Yeah, belonging to Rama.
Okay.
So whoever's relationship it is, that word will have Shashti Vibhakti. So let us Dilipaha Kashana Grihastaha. So this is Abhyasa. Dilipaha Kashana Grihastaha. Tatra Tasya Bandavaha Adaha Nirtishtaha Santi. Dilipasya Itareshamcha Sambandam Vakyehi Nirtishata. So there is someone called Dilipaha. Astu. So they have given us all his relationships, some of his relationships in this circle. So we will write sentences in saying who, how he is related to them. So, for example, they have given us Dilipaha. So in the middle is Dilipaha. So Dilipaha, and then they have Govindaha. So he is Govinda's younger brother. So Dilipaha Govindasya Anujaha. Asu. Anantaram, we have Rohini. So what would we say for Rohini, Priya Bhagini?
Rohini, Dilipasya Pautraha.
No.
Rohinyaha Pautraha Dilipaha.
So it is their relationship to Dilipaha. So the people in the outer circle, their relationship to Dilipaha is given. So Dilipaha Rohinyaha Pautraha. Pautraha means grandson. Astu. Anantaram, Shilpa Bhagini? Atra, Devaki.
Okay. Devaki.
Oh, sorry. We still haven't done E. One second, Bhagini. We still haven't done E Karanta Strilingaha. So here, so Devaki becomes Devakyaha.
Okay, Devakyaha Patihi Dilipaha.
Ekanimshaha, one second, I need to stop sharing. Drishyateva, Danin.
It is passed. Yeah.
Now visible.
Asu. Atra, Devaki iti ikaranta strilinga shabdaha. Tasya, nadi shabdavat bhavati. De nadyaha asti chet. Devakyaha iti bhavati. Astu, Devakyaha patihi Dilipaha Devakyaha patihi. Astu. Idanim Narasimhamurti Mahatya Srikantaha.
Dilipaha Srikantasya Avruttaha.
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 Samichinam.
What is that avuttaha means? Avuttaha.
Kimohavya?
Avuttaha meaning what?
Avuttaha means brother-in-law.
Okay, thank you.
Asta. Anantaram? Sita iti asti. Punit Mahodaya Bhavan vadati va?
Sita yaha pitruvyaha Dilipaha. Sita yaha pitruvyaha Dilipaha.
Ekanimshaha. Astu. Sita yaha pitruvyaha. Dilipaha Sita yaha pitruvyaha. Anantaram Nandini. सुरेन्द्रमहोदय
दिलीपस्य माता नन्दिनी इस इट ओके
न दिलीपः नन्दिन्याः पुत्रः
नन्दिन्याः पुत्रः
अस्तु अनन्तरं पुनीत् महोदय भवान् वदतु
नन्दिन्याः नलिन्याः नलिन्याः अग्रजः दिलीपः
समीचीनम् अस्तु अनन्तरं नरसिंहमूर्ति महोदय
दिलीपः रमायाः देवरः
आम् समीचीनम् अनन्तरं प्रिया भगिनी
दिलीपस्य जामाता उमा
न दिलीपः उमायाः जामाता अनन्तरं शिल्पा भगिनी भवती वदति वा श्रीधरः One second, let me see. Can you see now, Bhagini?
Not yet. Yeah, now I can see.
So, Sridharaha, Bhagini.
Sridharaha. श्रीधरः दिलीपस्य भागिन्याः
श्रीधरस्य भागिन्याः
श्रीधरस्य भागिन्याः दिलीपः
आम् समीचीनम्
What is Bhagini?
Sister's son.
Okay.
Astu. Samichinam. Astu. Inanim. Astu. Atra. Akaranta napumskalinga shabdaha santi. Atra. Phalam iti. एकः उदाहरणमस्ति फलम् इति तस्य प्रातिपदिकमस्ति फल अत्र षष्ठीविभक्तिः रूपाणि दत्तानि सन्ति फलस्य फलयोः फलानाम् अत्र अतः दत्तमस्ति फार् एनी अकारान्तनपुंसकलिङ्गशब्दाः शब्दः विल् हाव् सो फल It ends in a right. So, pala, sya, pala, hraswa, layoho, palanam. So, we have to make sure for the hraswa and dirgha parts. Asto. So, are there any questions on this slide?
No.
अस्तु अस्तु सो हियर् यू जस्ट् गो थ्रू द इकारान्त स्त्रीलिङ्गः नेक्स्ट् वीक् वी विल् डू द उकारान्त एण्ड् प parts. So we'll just do ikaranta strilinga. So here nadi is an example of ikaranta strilinga. So shashti vibhakti roopam will become nadyah, nadyoh, nadina. So for any ikaranta strilinga shabda, it ends in e. So lopah means half. So nad, so nadi, so nad yaha, and then nad yoho, nad nadinam. Asto. So there are exceptions, like one ikaranta shabda has three. So for stree, it will be striyaha, striyoho, streenam. So that doesn't follow our regular form. There are a couple words like this, but majority are nadyaha, nadyoho, nadinam form. So, so are there any questions on akaranta pullingaha, akaranta strilinga, akaranta napumsakalingaha, or ikaranta strilingaha?
Bhagini, what about Harihi?
Harihi, those words we will look at late next week, Mahodaya. First, okay, let's do the simple ones.
Okay.
Or else if we see all the forms in one class, okay, it will be too much.
Okay.
So, now let's just go over where all we can use Shashti Vibhakti. Kutra Katra. Kutra kutra shashti vibhaktehe prayogaha. Where are the uses of shashti vibhakti? So first one, sambandha vachaka padasya. So words that show relationship. So dasharatasya putraha, dasharatas son, lakshmyaha bhaktaha, lakshmi devi's devotee, tasyaha syutaha, her bag. That is one use of Shashti Bhakti. Anantaram, Nirdharanarthi. Meaning, in all, in all, for example, if you say Kavinam Kalidasaha Sreshtaha, Kavina means in all poets, in all poets, Kalidasaha is the greatest. So in all poets, Kalidasa is the greatest. Atra Kavinam Kalidasa Sreshtaha Yoganam Bhakti Margaha Saralaha. So for sages, Bhakti Margaha Saralaha. For all sages, the devotion route is easy. Anantaram Purataha Prishtataha Vamataha Dakshinataha Upari Adaha Antaha Bahihi. All of these words that determine direction, like Purataha Prishtataha, forward, behind, Vamataha Dakshinataha Upari Adaha, right, left, up, down, Antaha Bahihi, inside and outside. All of these words use Shashti Vibhaktihi. For example, Upari we have on top. So, Utpitikayaha Upari Sanganakam Asti. So, on top of the table, on top of the table, there is a computer. Asu Anantaram Bahi Avadeyam Atra Adaha Avadeyam Asti. Bahihi ityasya yoge panchami api sadhu grihat bahihi grihasya bahihi. So here, just to note we do not need to remember this, but the word bahihi, outside of, you can also use the fifth vibhakti. So you can say grihasya bahihi, that is shashti vibhakti, griham grihasya bahihi, or you can do the panchami and you can say grihat bahihi. So just to note, and then just like that, paritaha abhitaha ubhayataha ityesham yoge dvitiya eva. So we will learn about the bottom line next week. So we will, shashti vibhakti is the, always the second vibhakti you learn. You don't learn the vibhaktis in order. It's usually pratama vibhakti, shashti vibhakti, because they are used the most and they are easiest to learn. Asso, atra tasya vishaya prashnaha santi va? Are there any questions?
No.
Yoga nam bhakti marga saralaha. So it means of all yogas, bhakti marga yoga is easy, right? Not yoga for all yogis.
For all yogis, the bhakti marga means.
No, I was just reading.
Devotion.
Four yoga, four kind of yoga. Bhakti yoga, Raja yoga, Jnana yoga, and Karma yoga. So of all forms of yogas, Bhakti marga is easy. That.
No, atta yoga naam.
Among yoga.
Okay, it has two meanings. Thanks for picking that up, Mahodhya.
And ikaranta strilinga, can we, previous slide, can we just go once? Okay. Here, nadi na is there, and for stri na is there. So, when how to know, like, whether it's na or na, when to use what?
That just as Priya Bhagini asked for. Here also, Mahodhya, for now, just we'll use the regular na, this na. In a couple of weeks, we'll learn about this rule that is kind of complex, but we will learn about it. Once we get familiarized with Shashti Bhakti, then we can start applying the rule. Or else if we learn everything in one class, it'll just not go into everyone's mind.
Okay, asu. Thank you.
Asu. Idani. Gita sopanam gachamaha atra abhyasaha. Koshtake vidyamananam saptanam sahayena vakyani likhata. So, there are words given in the table. Using those, make sentences. So, what you have to do is put these words in Shashti Vibhakti and say the next two words. That's all. So, for example, Krishna Hasti, Shashti Vibhakti Krishnasya. So, Krishnasya Shankaha Panchajanyaha. That is all. Idani, Puneet Mohati Bhavan Karoto.
Yudhishtarasya Shankaha Ananta Vijayaha.
Samichinam. Anantaram, Nagendar Mohodhya.
Naravasya Veena Mahati.
Samichinam. Priya Bhagini.
Vishnu.
For Vishnu and Shambhu, it is Ukaranta, so we'll skip that for now, but because we'll learn that next week. But Bhavati Saraswati Karotu Bhagini.
Sarasvatyaha वाहनं हंसः.
समीचीनं. So next week after we learn the ukaranta and the different types, we'll redo this exercise. Astu. Atra munehe nama vyasah. Astu. Surendra Mahodaya, bhavan patati va.
Pandavanam jyeshtah yudhisthirah. कवीनां कृतयः काव्यानि.
समीचीनम्. अस्तु, इदानीं शिल्पा भगिनि.
अभिमन्युः पिता अर्जुनः.
अनन्तरं तेनयोः
उभयोः मध्ये
मध्ये
मध्ये रथं
स्थापय. समीचीनम्. अस्तु, अनन्तरं प्रिया भगिनी.
गीतायानां प्रथमः अर्जुन विषादयोगः.
अर्जुनविषादयोगः. अनन्तरम् अस्तु, अनन्तरं नरसिंहमूर्तिमहोदय, भवान् पठतु.
पितुः आज्ञा पालनीया.
पितुः आज्ञा पालनीया. अस्तु, अनन्तरं नागेन्द्रमहोदय.
भ्रात्रोः प्रिया भगिनी सुभद्रा. साधूनां परित्राणं करणीयम्.
समीचीनम्. अस्तु, बृन्दा सारी पुनीत् महोदय.
वारिणः संरक्षणं कर्तव्यम्. वारिणः संरक्षणं कर्तव्यम्.
समीचीनम्. अस्तु, सो फ्रेशर् मुनेः नाम व्यासः. सेजस् नेम् इस् व्यासः. पाण्डवानां ज्येष्ठः युधिष्ठिरः. द ओल्डेस्ट् अमङ्ग् द पाण्डवास् इस् युधिष्ठिरः. कवीनां कृतयः काव्यानि. वर्क्स् डन् बै सेजस् आर् पोयट्रि. अभिमन्योः पिता अर्जुनः. अभिमन्युस् फादर् इस् अर्जुनः. सेनयोः उभयोः मध्ये रथं स्थापय. In the middle of both the armies, please put the chariot there. Gitadhyayana Pratamaha Arjuna Vishada Yogaha. The first chapter in Bhagavad Gita is Arjuna Vishada Yogaha. Pituhu Agnya Palaniya. Father's request must always be done. Bratroh priya bhagini subhadra. Brother's favorite is sister subhadra. Sadhunam paritranam karaniyam. We should respect the sages. Varinaha samrakshanam kartavyam. Should keep safe. Astu? Astu. Atra prashnaha santiva? अस्तु इदानीं आर् देर् एनी क्वश्चन्स् फार् द अकारान्त पुल्लिङ्गः स्त्रीलिङ्गः अस्तु अभ्यासं कुर्मः तर्हि एकनिमिषः एकनिमिषः दृश्यते वा
हां भगिनि
अस्तु सो अत्र This is a mixture of akaranta pulinga akaranta pulinga akaranta napunsakalinga akaranta strilinga and ikaranta strilinga so first look at the first column so that is a word you have to put in shashti vibhakti and then look at the actually no so look at the word and if you need the meaning we have the meaning so pushpa शाकम् सो पुष्पशाकं पुष्पशाकस्य वट् विल् बि द द्विवचनं
पुष्पशाकाणां
पुष्पशाकयोः
पुष्पशाकयोः पुष्पशाकाणाम् अस्तु समीचीनं सो पुनीत् महोदय शिष्यः
शिष्यस्य शिष्ययोः योः शिष्याणां शिष्याणाम्
अस्तु अनन्तरं एव्रिवन् टु त्री अस्तु भवान् शाटिका अपि त्रिशूलं करोतु महोदय
शाटिकायाः शाटिकयोः शाटिकानां त्रिशूलस्य त्रिशूलयोः त्रिशूलाणां
समीचीनं महोदय अस्तु इदानीं नागेन्द्रमहोदय
वनस्य वनयोः वनानाम् अरण्यस्य अरण्ययोः अरण्यानां द्विचक्रिका द्विचक्रिकायाः द्विचक्रिकायोः द्विचक्रिकयोः द्विचक्रिकानां
अस्तु इदानीं प्रिया भगिनी सारी नरसिंहमूर्ति महोदय
अङ्कनलेखनी अङ्कन् इदर् टु वर्ड्स् आर् इट् अङ्कन् टु डिफ़रेण्ट् वर्ड्स् न अङ्कन् अण्ड् लेखनी
अङ्कनलेखनी इट्स् वन् वर्ड्
ओन्लि वन् अङ्कनलेखनस्य अङ्कनलेखनी अङ्कनलेखनीयाः अङ्कनलेखनीयोः अङ्कनलेखनीयानाम्
अस्तु
शय्या शय्यायाः शय्यायोः शय्याणां अदर् वन् इस् स्वगण ऋगण
अत्र शय्यायाः
शय्यायाः शय्याणां
शय्ययोः
शय्याणां
अनन्तरं रुग्णा इति
रुग्णायाः रुग्णयोः रुग्णानां
अस्तु इदानीं प्रिया भगिनी
वत्सायाः वत्सयोः वत्सानां चट्का चट्कायाः चट्कयोः चट्कानां हर्म्यस्य हर्मयोः हर्मानां करपणि
आं समीचीनम् अस्तु इदानीं शिल्पा भगिनी
नामस्य वेतनाम्योः वेतनाम्या सूत्रं सूत्रस्य सूत्र्योः सूत्राणाम् शुभ्रः
पुनः वदतु भगिनि
शूर्पः
शूर्पः
शूर्पः ओके शूर्पः शूर्पस्य शूर्पयाणाम्
अस्तु अनन्तरं सुरेन्द्रमहोदय
द्विचक्रयः द्विचक्रयोः द्विचक्राणाम् Am I correct? हलो
पुनः वदतु महोदय
द्विचक्रायाः द्विचक्रयोः द्विचक्राणां करेक्ट्
अस्तु पुनः वदतु महोदय ऐ काण्ट् हियर् यु वेल् युर् वाल्यूम् इस् वेरि लो
द्विचक्रयाः द्विचक्रयोः द्विचक्राणां
पाञ्चालिका अपि करोतु
पाञ्चालिकस्य पाञ्चालिकयोः पाञ्चालिकाणां करेक्ट्
आम् आम्
चमसस्य चमसयोः चमसानाम्
आम् अस्तु समीचीनम् अस्तु, अत्र प्रश्नाः सन्ति वा? अस्तु, प्रश्नाः न सन्ति चेत् अस्तु. अस्तु, एकनिमिष. दृश्यते वा? दृश्यते वा?
हां भगिनि.
अस्तु, अत्र इकारान्त उकारान्त ऋकारान्त पुल्लिङ्ग अथवा स्त्रीलिङ्गशब्दाः अत्र अस्ति. अस्तु, अत्र इकारान्त पुल्लिङ्गः अस्ति हरिः. अत्र इकारान्त पुल्लिङ्गशब्दस्य षष्ठीविभक्तिरूपाणि अपि इकारान्त स्त्रीलिङ्गशब्दस्य षष्ठीविभक्तिरूपाणि समानानि सन्ति. इत्युक्ते the forms for ikaranta pulinga shabdah and ikaranta strilinga shabdah are the same. So if we have harihi, hari or mati, the form will be harehe, hariyoho, harinam. But just for strilinga shabdah, it can be matehe or matyah. Can be matehe or matyah, and then matyoho, and then matinam. अस्तु, अत्र इकारान्त पुल्लिङ्ग फार् एनी इकारान्त पुल्लिङ्ग और् स्त्रीलिङ्गशब्दाः, सो द प्रातिपदिकम् एन्स् इन् इ, सो देन् वि स्विच् इट् इन् टु एहे. सो इफ् वि हाव् मति, सोरि, कविः, देन् वि हाव् कवेः लोपः इति दत्तमस्ति. सो देट् इस् हाव् सो कव्योः and then dirgham, so kavinam. Asto, prashnah santi va? So just for ikaranta pulinga shabdah, so we have agnihi. Punit mohadya,
अग्निः इकारान्तपुलिङ्ग, अग्नेः अग्न्योः अग्नीनाम्. देन् अञ्जलिः अञ्जलेः अञ्जल्योः अञ्जलीनाम् अतिथिः अतिथेः अतिथ्योः अतिथीनां
समीचीनम् अस्तु. इदानीं नागेन्द्र महोदय.
अर्द्र्योः अर्द्रीनां then giri okay it's meaning giri areha aryoha arinam aleha alyoha alinam
ha samichana mahodaya asto anantaram astihi नरसिंहमूर्ति महोदय.
आसिः आसिः आसियो आसि आसियोः आसीनाम् उपाधिः उपाधेः उपाधेयोः उपाधीनाम् ऋषिः ऋषेः ऋषयोः ऋषीणाम्
ऋषीणाम् अस्तु समीचीनं महोदय. अनन्तरं प्रिया भगिनी भवती वदतु.
कपिः कपेः कपयोः कपीनां कविः कवेः कवयोः कवीनां गणपतिः गणपतेः गणपत्योः गणपतीनां
आम् समीचीनम् अस्तु. अनन्तरं शिल्पा भगिनी.
जलदेः जलदेः जलद्योः जलदीनां दशरथिः दाशरथिः दाशरथेः दाशरथ्योः दाशरथेनाम्
आं समीचीनं भगिनि अस्तु. सुरेन्द्रमहोदय.
ध्वनिः ध्वनयेः ध्वन्ययोः ध्वनीनां निधिः निधयेः निधयोः निधीनां नृपतिः नृपत्ये नृपत्योः नृपतीनां पदाति हि पदातीयो पदातीयो पदातीये पदातीयोः पदातीनां
समीचीनम् अस्तु. अस्तु अत्र किं भवति इकारः यकारः भवति. अनन्तरम् इकारः एकारः भवति किल. अत्र मति इति अस्ति. वि हेड् मति, सो वि हेड् इत् प्लस् इ एण्ड् देन् इट् बिकेम् मतेः. सो इट् वास् सो वि हेड् मतेः. सो मतेः द इ बिकम् ए बिकेम् ए. सो इ becomes A and then E also becomes Yo. Yakaraha bhavati. Mat Yoho. So instead of Ikaraha it becomes Yakaraha. So here the Ikaraha can become Yakaraha or Ekaraha. Asto. So now we have ukaranta pulinga shabda guruh. So guruh, guruh, gurvoh, gurunam. So that is the same as ukaranta strilinga shabda. So we have dhenu, dhenoh or dhenvah, and then dhenvoh and dhenunam. So for this part we have ukaranta pulinga or any strilinga shabda, it ends in u, so the form will be oho. So dhenoho and then dhenvoho and dhenunam. Astu atra prashnaha santi va. So here the ukaraha can become vakaraha or ओकारः. अस्तु एण्ड् देन् लास्ट् वन् ऋकारान्तपुल्लिङ्गशब्दः पितृ. सो द फार्म् विल् बि पितुः, पित्रोः, पितॄणां. सेम् फार् स्त्रीलिङ्गः मातुः, मात्रोः, मातॄणां. सो फार् एनी पुल्लिङ्ग आर् स्त्रीलिङ्गशब्दः द प्रातिपदिकम् एन्सिन्ड्र. So using the pratipadikam, the forms will be ending in uhu, so ma uhu, and then lopaha yogaha roho, so matr oho, and then matrunam. Astu atra prashna santi va.
Bhagini, can you repeat it just one last time, the last one, Rukaranta?
So Rukaranta, for any Rukaranta Shabdaha, the Pratipadikam ends in R. Then the Shashti Vibhakti forms will be it will end in Uhu, like Matuhu or Pituhu. Then Dvivachanam will be Lopaha Yogha Roho. Lopaha means in half. So Matroho. Last one, we extend it and yogaha naam, so matru naam. Prashna ha santi va.
Yeah, thank you.
What is the difference between lopaha and hraswa bhagini?
So lopaha means like you are doing half.
Oh, you do half of it. Oh, sorry.
Half of it.
Okay.
Hraswa means short.
The short, yeah. Okay.
Asu.
Lopa means half, and what is the other one?
Rasa means short.
Rasa. Rasa.
It is Rasva, isn't it?
Yes, Rasva.
Rasva is short and Lopaha is half. Okay.
Yes, and Dirgaha is long.
Dirgaha is long, Lopaha is half, and Rasvaha is short. Okay.
So which is the smallest bhagini, Hraswaha?
That it's not like smallest, it's not in size, Mahodaya. But the smallest one would be half.
So Lopa is the smallest size, if I'm pronouncing.
Yes.
Then Hraswaha, then Dirgha.
Yes. अस्तु अत्र स्थगयामः because I don't want to move too forward, so I'll send the email tomorrow. I won't make it late like last time. Very sorry for the delay for last week's recording, last class's recording. So I'll send it by tomorrow night, and I'll send homework, and please I'll send the slides too, so please review these forms so that it will be easier when we learn like ikaranta, ukaranta, stilinga and napumsakalinga next week. Astu? Atrastagayamaha, danyavadaha, namaskaraha.